इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचने स्वप्रत्याशिनां समर्थनं प्राप्तुं प्रदातुं च विभिन्न राजनैतिक दलानां शीर्ष नेतारः देशस्य विभिन्नेषु भागेषु बहुविधाः सभाः यात्रां च कुर्वन्ति। पश्चिमबंगस्य जलपाईगुड़ी प्रखण्डस्य धूपगुड़ी प्रखण्डस्य झूमुर नगरे गतापराह्ने भाजपेति दलस्य वरिष्ठ नेत्रा एवं प्रधानमन्त्रिणा नरेन्द्रमोदिना जनसभा आयोजिता। श्रीमोदी सभायाम् अवदत् यत् सः सप्तचत्वारिंशदधिकद्विसहस्रतमवर्षं यावत् देशं विकसितराष्ट्रं कर्तुम् अहर्निशं कार्यं कुर्वन्नस्ति। सः अवदत् यत् आगामि लोकसभानिर्वाचनं केन्द्रे शक्त स्थिरश्च सर्वकारस्य सन्दर्भे अस्ति। अद्य भारतम् आतंकरहितं जातम् इति प्रकाशयन् प्रधानमन्त्री मोदी अवदत् यत् सप्तत्यधिकत्रिशतम् अनुच्छेदस्य निरसनेन आतंकमुक्त कश्मीरः एव साक्ष्यमस्ति, यत् भारतस्य गौरवम् अस्ति। भाजपायाः नेतृत्वेन एनडीए सर्वकारस्य नीतिभिः निर्धनानां जीवनं सुलभं जातम् इति सः प्रतिपादितवान्। श्रीमोदी न उक्तं यत् राज्यस्य टीएमसी सर्वकारेण केन्द्रस्य निर्धनजनानां कल्याणकारियोजनानां कार्यान्वयने बाधा स्थापिता। श्रीमोदी अवदत् यत् इण्डिया इत्याख्यस्य युक्तदलस्य पार्श्वे देशस्य नेतृत्वदृष्टिकोणस्य अभावो दृश्यते। अपरपक्षे तृणमूल कांग्रेसदलस्याध्यक्ष पश्चिमबंगस्य मुख्यमन्त्रिणा च ममता बनर्जी इत्यनया पुरुलिया जनसभा निर्वाचनक्षेत्रे दलस्य प्रत्याशी शान्तिराम महतो इत्यस्य समर्थने जनसभायाः आयोजनं कृतम्। लोकसभा निर्वाचनस्य द्वितीय चरणस्य नामांकन प्रत्यावर्तनस्य अद्य अन्तिमा तिथिः अस्ति। अस्य चरणस्य नामांकनानां समीक्षा जम्मूकश्मीरं विहाय शुक्रवासरे अभवत्। जम्मूकश्मीरे शनिवासरे समीक्षा जाता। द्वितीयचरणस्य नामांकनस्य प्रक्रिया गुरुवासरे एव समाप्तम्। अस्मिन् चरणे द्वादश राज्येषु केन्द्रशासित राज्येषु च अष्टाशीति लोकसभासनानि बाह्य मणिपुर लोकसभाक्षेत्रस्य अवशिष्टभागेन सममेव अस्य मासस्य षड्विंशतिदिनांके मतदानं भविष्यति। निर्वाचनायोगेन कथितं यत् अस्य वर्षस्य लोकसभानिर्वाचनस्य मतदानघोषणायाः विंशतिदिनानाम् आभ्यन्तरे एव सुविधा इत्याख्ये अन्तर्जालपटले त्रिसप्ततिसहस्राधिकानि आवेदनानि प्राप्तानि। अस्य पटलस्य माध्यमेन जनप्रदर्शन्याः आयोजनस्य अस्थायीदलकार्यालयानाम् उद्घाटनस्य प्रतिगृहं गत्वा प्रचार प्रसारस्य च अनुमतिं प्राप्तुं शक्यते। निर्वाचनायोगेन कथितं यत् प्राप्तानुरोधेषु षड्शताधिक चतुश्चत्वारिंशत् सहस्रम् अधिकाः आवेदनानि स्वीकृतानि। अवधेयास्पदं वर्तते यत् इदं सुविधा पोर्टल पटलं निर्वाचन प्रबन्धने पारदर्शितां संवर्धयति। एतत् अन्तर्जालपटलं निर्वाचनायोगेन विकसितम् अस्ति यत् स्वतन्त्र निष्पक्ष पारदर्शी निर्वाचनस्य लोकतान्त्रिक सिद्धान्तानाम् अनुरूपं वर्तते। आईपीएल इत्यस्यां क्रिकेट मालिकायां गत सायं मुम्बय्याः वानखेड़े क्रीडांगणे मुम्बई इण्डियंस दलेन प्रतिस्पर्धायां देहली कैपिटल्स दलम् ऊनत्रिंशत् धावनांकैः पराजितम्। द्वितीयायां प्रतिस्पर्धायां लखनऊ नगरस्य अटल बिहारी वाजपेयी एकाना क्रीडांगणे लखनऊ सुपर जॉइंट्स दलेन गुजरात टाइटन्स दलं पराजितम् इति वार्ताः।